ॐ शांताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभांगं लक्ष्मीकांतं कमलनयनं योगिर्भिध्यानगम्यं वंदे विष्णुं भवभयहरं सर्वलोकैकनाथं मेघश्यामं पीतकोशेयवासं श्रीवत्सांकौस्तुभोद्भासितांगं पुण्योपेतं पुंडरीकायताक्षं विष्णुं वंदे सर्वलोकैकनाथं नमः समस्त भूतानामाधिभूताय भूप्रते अनेक रूप रूपाय विष्णवे प्रभ विष्णवे सशंख चक्रं सकिरीट कुंडलं सपीत वस्त्रं सरसीरुहेक्षणं सौहार वक्षः स्थलकौस्तुभश्रयं नमामि विष्णुं शिरसा चतुर्भुजं छायायांग पारिजातस्य हेम सिंहासनोपरि आसीनमंबुदस्याम मायताक्षमलंकृतं चंद्राननं चतुर्बाहुं श्रीवत्सांकित वक्षसं रुक्मणे सत्यभामाभ्यां सहितं कृष्णमाशये स्तोत्रम् हरिः ॐ विश्वं विष्णुर्वशत्कारो भूतभव्यभवत्प्रभु भूतकृद्भूतकृद्भावो भूतात्मा भूतभावनः भूतात्मा परमात्मा च मुक्तानां परमा गतिः अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च योगो योगविदाङ्नेता प्रधानपुरुषेश्वरः नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः सर्वः शर्वः शिवः स्थानुर्भूतादिर्निधिरव्ययः सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः स्वयंभुवः शम्भुरादित्यः पुष्कराक्षो महास्वनः अनादिनिधनो धाता विधाता धातुरुत्तमः अप्रमेयो हृषीकेशः पद्मनाभोमरप्रभुः विश्वकर्मा मनस्त्वष्टा अस्तविष्टः स्थविरोद्रुवः अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः प्रभूतस्त्रिकुब्धाम पवित्रं मङ्गलं परम् ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः अह संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः वृषाकपिर्मेयात्मा सर्वयोगविनः सुतः वसुर्वसुमनाः सत्यः समात्मा सम्मितः समः अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः अमृतः शाश्वतस्थानुर्वरारोहो महातपाः सर्वगः सर्वविद्वानुर्विश्वक्सेनो जनार्दनः वेदो वेदविदव्यङ्गो वेदाङ्गो वेदविद्कविः लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः चतुरात्मा चतुर्व्यूहश्चतुर्दंश्च चतुर्भुजः भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः अनुघो विजयो जेता विश्वयोनिः पुनर्वसुः उपेन्द्रो वामनः प्रांशुर्मोघः शुचिरु अर्जितः अतीन्द्रः सङ्ग्रहः सर्गो घृतात्मा नियमो यमः वेद्यो वैद्यः सदा योगी वीरः माधवो मधुः अतीन्द्रियो महामायो महोत्साहो महाबलः महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः अनिर्देशवपुः श्रीमान् मे आत्मा महादृधृक् महेश्वासो महीभर्ता श्रीनिवासः सताङ्गतिः अनिरुद्धः सुरानन्दो गोविन्दो गोविदाङ्पतिः मरीचिदर्मनोहंसः सुपर्णो भुजगोत्तमः हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः अमृत्युः सर्वदृक्सिंहः सन्धाता सन्धिमानस्थिर् अजो दुर्मषणः शास्ता विश्रुतात्मा सुरारिहा गुरुर्गुरुत्तमो धाम सत्यः सत्यपराक्रमः निमिषो निमिषः शक्वी वाचस्पतिरुदारधीः अग्रणीर्ग्रामणीः श्रीमान् न्यायो नीता समीरणः सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः अहः संवर्तकोपहनिर्निलोधरणीधरः सुप्रसादः प्रसन्नात्मा विश्वदृग्विश्वभुग्विभुः सत्कर्ता सत्कृतः साधुर्जहनुर्नारायणो नरः असङ्ख्येयो प्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः सिद्धार्थः सिद्धसङ्कल्पः सिद्धितः सिद्धिसाधनः वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुधो वसुः नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः रद्धः अस्पष्टाक्षरो मन्त्रश्चन्द्रांशुरभास्करद्युतिः अमृतांसद्भवो भानुः शशुबिन्दुः सुरेश्वरः औषधं जगतः सेतुः सत्यधर्मपराक्रमः भूतभव्यभवन्नाथः पवनः पावनो नलः कामः कामकृत्कान्तः कामः कामप्रदः प्रभुः युगादिकृतयुगावर्तो नैकमायो महाशनः अद्रश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् इष्टो विशिष्टः शिष्टेटः शिखण्डी नहुषो वृषः क्रोधः क्रोधकृतकर्ता विश्वमाहुर्महीधरः अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः अपाङ्निधिरधिष्ठानं प्रमत्तः प्रतिष्ठितः अस्कन्दः अस्कन्धरो धूर्यो वरदो वायुवाहनः वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः अनुकूलः शतावर्तः पद्मी पद्मनिवेक्षणः पद्मनाभोरविन्दाक्ष पद्मगर्भः शरीरभृत् महद्विरुद्धो वृद्धात्मा महाक्षो गरुडध्वज अतुलः शरभो भीमः समयज्ञो हविर्हरिः सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः विक्षरो रोहितो मार्गो हे दुर्दामोदरः सः महीधरो महाभागो वेगवान् मिताशनः उद्भवः शोभनो देव श्रीगर्भः परमेश्वरः करणं कारणं कर्ता विकर्ता गहनो गुहः व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः परिर्धिः परमस्पष्टः स्तुष्टः पुष्टः शुभक्षणः रामो विरामो विरजो मार्गो नेयो नयो नयः वीरः शक्तिमताङ्क्ष्विष्ठो धर्मो धर्मविदुत्तमः वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुर्धुक्षजः ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः विस्तारः अस्थावरस्थाणुः प्रमाणं बीजमव्ययम् अर्थो अनर्थो महाकोशो महाभोगो महागणः अनिर्विण्णः अस्तविष्ठोर्भूर्धर्मयूपो महामखः नक्षत्रनेमिर्नक्षत्रि क्षमः क्षामः समीहनः यज्ञयज्ञो महाजश्च क्रतुः सत्रं सताङ्गतिः सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् मनोहरो चित्क्रोधो वीरबाहुर्विदारणः स्वापनः सवशो व्यापी नैकात्मा नैककर्मकृत वत्सरो वत्सलो वत्से रत्नगर्भो घनेश्वरः धर्मगुप्तधर्मकृतधर्मी सदसक्षरम अक्षरम अविज्ञाता सहस्रांशुर विधाता कृतलक्षणः गभस्तिनेमिः सत्तस्थः सिंहो भूतमहेश्वरः आदिदेवो महादेवो देवेशो देवभृद्गुरुः उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः शरीरभूतवृद्भोक्ता कपीन्द्रो भूरि दक्षिणः सोमपो मृतपः सोमः पुरजित्पुरसत्तमः विनियोजयः सत्यसन्धो दाशाढः सात्ततांपतिः जीवो विनयिता साक्षी मुकुन्दो मितविक्रमः अम्भो निगरनन्तात्मा महोदधिशयोऽन्तकः अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः त्रिपदश्री दशाध्याक्षो महाशृङ्गः कृतान्तकृत् महावराहो गोविन्दः शुषेणः कनकाङ्गदी गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः वेदाः स्वाङ्गोचितः कृष्णो दृढः सङ्कर्षणोच्युतः वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः भगवान् भगहानन्दी वनमाली हलायुधः आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः सुघन्वाखण्डपरशुर्दारुणो द्रविणप्रदः दिवस्पृक्सर्वदृग्व्यासो वाचस्पतिर्योनिजः त्रिसामासामगः सामा निर्वाणङ्गभेषजङ्घभिषक् सन्न्यासकृच्छमः शान्तो निष्ठाशान्तिः परायणम् शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः अनिवर्ति निवृत्तात्मा संक्षिप्ताक्षेमकृच्छवः श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतान्वयः श्रीधः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः श्रीधरः श्रीकरः श्रेयः श्रीमाल्लोकत्रयाशयः स्वच्छः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः विजितात्मा विधेयात्मा सत्कीर्तिश्चिन्नसंशयः उदीर्णः सर्वतश्च शृणेशः शश्वतस्थिरः भूषयो भूषणो भूतिर्विशोकः शोकनाशनः अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः अनिरुद्धो प्रतिरथः प्रद्युम्नो मितविक्रमः कालनीमिनिहावीरः शौर्यः शूरजनेश्वरः त्रिलोकात्मा त्रिलोकेशः केशवः केशिहाहरिः कामदेवः कामपालः कामीकान्तः कृतागमः अनिर्देशवपुरविष्णुर्वीरोऽनन्तो धनञ्जयः ब्रह्मण्यो ब्रह्मकृतब्रह्मा ब्रह्मब्रह्मविवर्धनः ब्रह्मविद्ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः महाक्रमो महाकर्मा महातेजा महोरगः महाक्रतुर्महायज्ज्वा महायज्ञो महाहविः स्तभ्यः अस्तवप्रियः स्तोत्रं स्तुतिः स्तोतारणप्रियः पूर्णः पूरयिता पुण्यः पुण्यकीर्तिर्नामयः मनोजवस्तीर्थकरो वसुरेता वसुप्रदः वसुप्रदो वासुदेवो वसुर्वसुमनाहविः सद्गतिः सत्कृतिः सत्ता सद्भूति सत्परायणः शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः भूतावासो वासुदेवः सर्वासुनयोनलः दर्पहा दर्पदो दृप्तो दुर्धरोऽथा पराजितः विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिर्मूर्तिमान् अनेकमूर्तिरव्यक्तः शतमूर्तिः सनातनः एको नैकः सवः कः किं यत्पत्तदमानतत्तमं लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी वीरहावषमः शून्यो घृताशीरचलश्चलः अमानीमानदो मान्यो लोकस्वामी त्रिलोकधृक् सुमेधामेधजो धन्यः सत्यमेधाधराधरः तेजोवृषो द्युतिधरः सर्वशस्त्रभृताङ्गवरः प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् समावर्तो निवृत्तात्मा दुर्जयो दुरितिक्रमः दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा शुभांगो लोकसारंगः सुतन्तुस्तन्तुवर्धनः इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः अर्को वाजसनः शृङ्गे जयन्तः सर्वविज्जयी सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः महाहृदो महागर्तो महाभूतो महानिधे कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः अमृताशो मृतवपुः सर्वज्ञः सर्वतोमुखः सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः न्यग्रोधोदुम्बरोस्तस्तस्सानूरान्द्रनिषूदनः सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः अमूर्तिरनघोचिन्त्यो भयकृतभयनाशनः अनुर्बृहत्कृशः स्थूलो गुणभृन्नृगुणो महान् अघ्रतः स्वघ्रतः स्वास्यः प्राङ्वशो वंशवर्धनः भारभृत कथितो योगी योगीशः सर्वकामतः आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः धनुर्धरो धनुर्वेदो दण्डो दमयितादमः अपराजितः सर्वसहो नियन्ता नियमो यमः सत्त्ववान् सात्विकः सत्यः सत्यधर्मपरायणः अभिप्रायः प्रियार्होरः प्रियकृत् प्रीतिवर्धनः विहाय शक्तिर्ज्योतिः सुरुचिरहुतभुग्विभुः रविर्विरोचनः सूर्यः सविता रविलोचनः अनन्तो हुतभुग्भोक्ता सुखदो नैकजोग्रजः अनिर्विण्णः सदामर्षि लोकाधिष्ठानमद्भुतः सनातनतमः कपिलः कपिरव्यवः स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्तस्वस्तिदक्षिणः अरौद्रः कुण्डलीचक्रे विक्रम्यूर्जितशासनः शब्दातिगः शब्दसः शिशिरः सर्वरीकरः अक्रूरः पेशलो दक्षो दक्षिणः क्षमिनाङ्गरः विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः उत्तारणो दुष्कृतिः पुण्यो दुःस्वप्ननाशनः वीरहारक्षणः सन्तो जीवनः पर्यवस्थितः अनन्तरूपो अनन्तश्रीर्जितमन्यर्भयापः चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः अनादिर्भूर्भुवो लक्ष्मीः सुवीरोरुचिराङ्गदः जननो जनजनमादिर्भीमो भीमपराक्रमः आधारनिलयोधाता पुष्पहासः प्रजागरः ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः प्रणः प्रमाणं प्राणनिलयः प्राणवृत्प्राणजीवनः तत्त्वं तत्त्वविवेकात्मा जन्ममृत्युजरातिकः भूर्भुवः स्वस्तुरुस्तारः सविता प्रपितामहः यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुग् यज्ञसाधनः यज्ञान्तकृद् यज्ञगुह्य मन्नं मन्नाद एव च आत्मयोनिः स्वयं जातो वैखानः सामगायनः देवकीनन्दनः षष्ठा क्षितीश पापनाशनः शङ्खभृन्नन्दीचक्रे सारङ्गन्वा गदाधरः रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः सर्वप्रहरणायुधः ॐ नम इति वनमाली गदी शार्ङ्गी शङ्खी चक्री चानन्दकी श्रीमान् नारायणो विष्णुर्वासुदेवोऽभिरक्षतु श्रीवासुदेवोऽभिरक्षतु ॐ नम इति उत्तरन्यासः भीष्म उवाच इत्तीदं कीर्तिनीयस्य केशवस्य महात्मनः नाम्नां सहस्रं दिव्यानां शेषेण प्रकीर्तितं य इदं शृणुया नित्यं यश्चापि परकीर्तयेत् नाशभं प्राप्नुयात् किञ्चित् सौमित्रेह च मानवः वेदान्तको ब्राह्मणः स्याच्छत्रियो विजयी भवेत् वश्योधनसंवृद्धः साक्षूद्रः सुखं वाप्नुयात् धर्मार्थे प्राप्नुयात् धर्मम् अर्थार्थे चार्थमाप्नुयात् कामानवाप्नुयात् कामी प्रजार्थे प्राप्नुयात् प्रजाम्। भक्तिमानः यः सदुत्थाय श्रुतिस्तद्गतमानसः सहस्रङ्गवासुदेवस्य नाम्ना मे तत्प्रकीर्तयेत्। यशः प्राप्नोति विपुलं ज्ञातप्राधान्यमेव च, अचलाङ्गश्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम्। न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति, भवत्यरोगो द्युतिमान् बलरूपगुणान्वितः। रोगार्तो मुच्यते रोगाद्वन्द्वो मुच्येत बन्धनात्, भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः। दुर्गान्नतितरत्याशु पुरुषः पुरुषोत्तमं, स्तुपन्नाम सहस्रेण नित्यं भक्तसमन्वितः। वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः, सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम्। न वासुदेवभक्तानां शुभं विद्यते क्वचित्, जन्ममृत्युजराव्याधि भयङ्नैवोपजायते। इमं अस्तमवधीयानः श्रद्धाभक्तसमन्वितः, युज्येतात्मसुखकान्ति श्रीधृति स्मृतिकीर्तिभिः। न क्रोधो न च मात्सर्यं न लोभो नाशुभामतिः, भवन्त कृतपुण्यानां भक्तानां पुरुषोत्तमे। द्यौः सचन्द्रार्तनक्षत्रा खङ्गदिशो भूर्महोदधिः, वासुदेवस्य वीर्येण विधृतानि महात्मनः। ससुरासुरगन्धर्वं सयक्षोरगराक्षसं, जगद्वंसे वर्ततेदं कृष्णस्य सचराचरम्। इन्द्रयाणि मनोबुद्धिः सत्त्वं तेजो बलं धृतिः, वासुदेवात्मकन्याहुः क्षेत्रं क्षेत्रज्ञ एव च। सर्वागमानाम् आचारः प्रथमं परिकल्प्यते, आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः। ऋषयः पितरो देवा महाभूतानि घातवः, जङ्गम आजङ्गं चेदं जगन्नारायणोद्भवम्। योगो ज्ञानं तथा सारं विद्याः शिल्पादिकर्म च, वेदाः शास्त्रानि विज्ञानम् एतत्सर्वं जनार्दनात्। एको विष्णुर्महद्भूतं पृथग्भूतान्नेकशः, त्रिलोकान्व्यापभूतात्मा भुङ्क्ते विश्वगव्ययः। इमं अस्तवं भगवतो विष्णुर्व्यासेन कीर्तितं, पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च। विश्वेश्वरम् अजगदेवं जगतः प्रभुमव्ययं, भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवं, न ते यान्ति पराभवम्। ॐ नमः इति अर्जुन उवाच। पद्मपत्र विशालाक्ष पद्मनाभसुरोत्तम, भक्तानामनुरक्तानां त्राता भव जनार्दन। श्रीभगवान् उवाच। यो मां नाम सहस्रेण स्तोतुमिच्छति पाण्डव, सोऽहमेकेन श्लोकेन स्तुत एव न संशयः, स्तुत एव न संशय। ॐ नमः इति व्यास उवाच। वासनाद्वासुदेवस्य वासितं भुवनत्रयं, सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते, श्रीवासुदेव नमोऽस्तु त। ॐ नमः इति पार्वती उवाच। केनोपायेन लघुना विष्णोर्नाम सहस्रकं, पच्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो। ईश्वर उवाच। श्रीराम राम रामेति रमे रामे मनोरमे, सहस्रनामत अतुल्यं राम नाम वरानन। श्रीराम नाम वरानन। ॐ नमः इति ब्रह्मोवाच नमोऽस्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटियुगधारे नमः ॐ नमः इति ॐ तत्सदिति श्रीमहाभारते शतसहस्र्यां संहितायां वैयासिक्याम अनुशासनिके पर्वणि भीष्मयुधिष्ठिर संवादे श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रम् संजय उवाच यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम श्रीभगवानुवाच अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्मसंस्थापनार्थाय संभवामि युगे युगे आर्ताः विषण्णाः शिथिलाश्च भीताः घोरेषु च व्याधिषु वर्तमानाः संकीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति कायेन वाचा मनसेन्द्रियैर्वा बुद्धात्मना वा प्रकृतिस्वभावात् करोमि यत्तत् सकलं परस्मै नारायणायेति समर्पयामि इति श्री विष्णुर्दिव्यसहस्रनामस्तोत्रं सम्पूर्णम् ॐ तत्सत्